ಗುರುರೇವ ದಶಿ ಗುರುಮೇವ ಬಜೇ ಗುರುನೈವ ಸಹಸ್ಮಿ ನಮೋ ಗುರವೇ ನ ಗುರೋ ಪರಮಂ ಶಿಶುರಸ್ಮಿ ಗುರೋ ಮತಿರಸ್ತು ಗುರೋ ಮಮ ಪಾಹಿ ಗುರೋ ಓಂ ನಮಃ ಪಾಣಿನಿ ಕಾತ್ಯಾಯನ ಪತಂಜಲಿಭ್ಯ ಶಬ್ದವಿದ್ಯಾ ಸಂಪ್ರದಾಯ ಪ್ರವರ್ತಕೇಭ್ಯ ನಮೋ ಮುನಿಭ್ಯ ನಮೋ ಗುರುಭ್ಯ. ಇಕಾರಾಂತ ಪುಲ್ಲಿಂಗ ಹರಿಶಬ್ದ ಪ್ರಕ್ರಿಯಾ ಮಧ್ಯೆ ವಯಂ ಸ್ಮಃ. ಹರಿಶಬ್ದಸ್ಯ ಪ್ರಥಮಾವಿಭಕ್ತಿ ರೂಪಂ ಹರಿಹಿ ಇತಿ. ಹರಿ ತತ್ರ ಪ್ರಥಮಾವಿಭಕ್ತಿ ಏಕವಚನ ವಿವಕ್ಷಾಯಾಂ ಹರಿಸ್ ಇತಿ ಭವತಿ. ತತ್ರ ಸಸದಿಶೋರುಹು ಚನೇನ ಋತ್ವಂ ಋತ್ವಸ್ಯ ಕರವಸಾನಯೋ ವಿಸರ್ಜನೀಯಃ ಇತಿ ವಿಸರ್ಗಃ ಹರಿಹಿ ಇತಿ ರೂಪಸಿದ್ಧಿಃ. ಏವಂ ಹರಿ ಔ ಪ್ರಥಮಾವಿಭಕ್ತಿ ದ್ವಿವಚನೆ ಹರಿ ಔ ಇತಿ ಸ್ಥಿತೆ ಶೌಚ ಸಮೌತ್ ಇತಿ ಸೂತ್ರೇಣ ಔ ಪ್ರತ್ಯಯ. ತತ್ರ ಪ್ರಥಮಯೋ ಪೂರ್ವ ಸವರ್ಣಃ ಇತ್ಯನೇನ ಪ್ರಥಮಯೋ ಪೂರ್ವ ಸವರ್ಣಃ ಇತ್ಯನೇನ ದೀರ್ಘ ಏವಂ ಹರಿ ಇತಿ ರೂಪಸಿದ್ಧಿಃ ಭವತಿ. ಪ್ರಥಮಾವಕ್ತಿ ಬಹುವಚನ ವಿವಕ್ಷಾಯಾಂ ಹರಿ ಜಸ್ ಹರಿ ಅಸ್ ಇದಾನಿಂ ಪೂರ್ವಸೀರ್ಣ ಪೂರ್ವಸವರ್ಣ ದೀರ್ಘಸ್ ಪ್ರಾಪ್ತಿಹಿ ಅಸ್ತಿ. ಯತೋಹಿ ಪೂರ್ವಸವರ್ಣ ದೀರ್ಘ ಪೂರ್ವಸವರ್ಣ ದೀರ್ಘ ಸೂತ್ರಂ ಕಿಂ ವದತಿ. ಪ್ರಥಮಯೋ ಪೂರ್ವಸವರ್ಣಃ ಇತಿ ಸೂತ್ರಂ ಪ್ರಥಮಯೋ ಪೂರ್ವಸವರ್ಣಃ ಇತಿ ಸೂತ್ರಂ ಕಿಂ ವದತಿ. ಇತಿ ಅಚಿ ಪರೆ ಅಚಿ ಪೂರ್ವಸವರ್ಣ ದೀರ್ಘ ಏಕಾದೇಶ ಭವತಿ. ಇದಾನಿಂ ಅತ್ರ ಅಚ್ಪರಕತ್ವಮಸ್ತಿ ಅಚ್ವರ್ಣಃ ಅಸ್ತಿ ಅತಃ ಪೂರ್ವಸವರ್ಣ ದೀರ್ಘಸ್ಯ ಪ್ರಾಪ್ತಿಃ ಅಸ್ತಿ. ಏವಂ ಪೂರ್ವಸವರ್ಣ ದೀರ್ಘೆ ಪ್ರಾಪ್ತೆ ಕಿಂ ಭವತಿ ಅಗ್ರಿಮಸೂತ್ರಂ ಪ್ರವರ್ತತೆ ಜಸಿ ಚ ಇತಿ. ಅತ್ರ ಜಸಿ ಚ ಇತಿ ಸೂತ್ರಂ ಸಪ್ತಮಾಧ್ಯಾಯಸ್ಯ ಸೂತ್ರ ಪರಸೂತ್ರಂ. ಅತ್ರ ಪದದ್ವಯಂ ವಿದ್ಯತೆ ಜಸಿ ಚ ಇತ್ಯತ್ರ ಅಂಗಸ್ಯ ಇತಿ ಅಧಿಕ್ರಿಯತೆ. ಅಂಗಾಧಿಕಾರಃ ಷಷ್ಠಾಧ್ಯಾಯಸ್ಯ ಚತುರ್ಥಪಾದಾತ್ ಅಂಗಾಧಿಕಾರಃ ವಿದ್ಯತೆ. ಅತಃ ಅಂಗಾಧಿಕಾರೇ ಅಸ್ತಿ ಹ್ರಸ್ವಸ್ಯ ಗುಣಃ ಇತಿ ಅನುವೃತ್ತಿಃ ಅಸ್ತಿ. ಏವಂ ಹ್ರಸ್ವಸ್ಯ ಗುಣಃ ಜಸಿ ಚ ಅಂಗಸ್ಯ ಇತಿ ಪಂಚಪದಾನಿ ಆಗತಾನಿ ಸೂತ್ರಾರ್ಥಕರಣಾರ್ಥಂ. ಸೂತ್ರಾರ್ಥಂ ಹ್ರಸ್ವಾಂತಸ್ಯ ಹ್ರಸ್ವಸ್ಯ ಗುಣಃ ಹ್ರಸ್ವಾಂತಸ್ಯ ಅಂಗಸ್ಯ ಗುಣಃ ಸ್ಯಾತ್ ಕದಾ ಜಸಿ ಪರೆ ಇತಿ. ಇದಾನಿಂ ಹರಿ ಅಸ್ ಜಸ್ ಇತ್ಯತ್ರ ಹರಿ ಅಸ್ ಇತಿ ಭವತಿ. ಇದಾನಿಂ ಅತ್ರ ಗುಣಃ ಇತ್ಯುಕ್ತೆ ಅಸ್ಮಾಭಿಃ ಇಕಾರಸ್ಯ ಗುಣಃ ಏಕಾರಃ ಅತಃ ಹರೇ ಅಸ್ ಇತಿ ಅಸ್ಮಾಭಿಃ ಸ್ವೀಕ್ರಿಯತೆ. ತತ್ರ ಅಲೋಂತ್ಯಸ್ಯ ಇತ್ಯನೇನ ಅಂತ್ಯಸ್ಯ ಇಕಾರಸ್ಯ ಗುಣಃ ಭವೇತ್. ಸ್ಥಾನೇಂತರತಮಃ ಇತಿ ಪ್ರಮಾಣತಃ ಆಂತರ್ಯೇಣ ವಾ ಪ್ರಮಾಣತಃ ಆಂತರ್ಯಂ ಇತ್ಯುಕ್ತೆ ಹರಸ್ವಸ್ಯ ಹರಸ್ವಃ ಇತಿ ಪ್ರಮಾಣ ಆಂತರ್ಯಂ. ಸ್ಥಾನಾಂತರ್ಯಂ ಇಕಾರಸ್ಯ ಏಕಾರಃ. ಅವಗತಂ ವಾ ಏತತ್ ಮಹಾದೇವನ್ ಮಹೋದಯ? ಪ್ರಮಾಣತಃ ಆಂತರ್ಯಂ ಸ್ಥಾನ ಅಲೋಂತ್ಯಸ್ಯ ಇತಿ ಅಂತ್ಯಸ್ಯ ಇಕಾರಸ್ಯ ಗುಣಃ ಭವೇತ್. ಗುಣಃ ನಾಮ ಕಃ? ಗುಣಃ ನಾಮ ಅತ್ರ ಅಸ್ಮಾಕಂ ಸಮೀಪೆ ಕೆ ವರ್ಣಾಃ ಸಂತಿ. ಅಕಾರಃ ಅಸ್ತಿ, ಏಕಾರಃ ಏಕಾರಃ ಓಕಾರಃ ಏತೇ ವರ್ಣಾಃ ಸಂತಿ. ಇದಾನಿಂ ಅಸ್ಮಾಕಂ ಪ್ರಮಾಣತಃ ಆಂತರ್ಯಂ ಇತ್ಯುಕ್ತೆ ह्रस्वदीर्घ प्लुतादयः इकारस्य प्रमाणतः आन्तर्यं नाम स्थाने अन्तरतमः इति उक्तम्। स्थाने अन्तरतमः इदानीम् इकारस्य अन्तर इकारस्य आन्तर्यं प्रमाणतः आन्तर्यं इकारः हर्षवर्णः प्रमाणतः आन्तर्यम् आ ए ओ वर्णेषु प्रमाण अकारः एव ह्रस्वः तर्हि एवं प्रमाणतः प्रमाणतः यदि आन्तर्यम् अस्माभिः स्वीक्रियते तर्हि अकारस्य प्राप्तिः। स्थानतः आन्तर्यम् इकारः तालुवर्णः स्थानतः आन्तर्य एकारः एकारस्य प्राप्तिः तदा उच्यते इति तत्र परिभाषा विद्यते। यत्र अनेकविधमान्तर्यं तत्र स्थानतः आन्तर्यं बलीयः इति परिभाषा विद्यते। अतः इकारस्य एकारः एव गुणवर्णेन स्वीक्रियते। एवम् अत्र हरे अस्त् इति भवति। हरि अस्त् इत्यत्र जसि च इत्यनेन हरे अस्त् इति भवति। इदानीं यचोयवायावः इति सूत्रस्य प्राप्तिः एवं हरयस् यचोयवायावः इत्यनेन हरयस् इति भवति। हरयर् हरयः इति हरयः इति भवति। शारदा भगिनी अवगतं वा? अस्तु इदानीं हरः श्रूयते श्रूयते हरिः हरि हरयः एवं हरयः इत्यत्र ऋत्वविसर्गे कृते हरयः इति भवति। इदानीं सम्बोधनप्रकरणभक्ति रूपं हे हरिस् इदानीं येन ह्रस्वात् सम्बुद्धेः इति सम्बुद्धिलोपे प्राप्ते ह्रस्वस्य गुणः इति अस्ति। इदानीं हे हरिस् ह्रस्वस्य गुणः साक्षात् ह्रस्वस्य गुणः इति अत्र सूत्रार्थः एवमस्ति। ह्रस्वस्य गुणः इति सप्तमाध्यायस्य तृतीयपादस्य सूत्रम्। अत्र अङ्गस्य इति अधिक्रियते, अङ्गाधिकारः अस्ति। सम्बुद्धौ च सम्बुद्धौ इति सप्तमपूर्वसूत्रं विद्यते। पूर्वसूत्रात् सम्बुद्धौ इति अनुवृत्तिः अस्ति। एवं सम्बुद्धौ ह्रस्वस्य गुणः अङ्गस्य इति अस्ति। इदानीम् अङ्गस्य ह्रस्वस्य गुणः स्यात् कदा? सम्बुद्धौ सम्बुद्धिः नाम एकवचनं सम्बुद्धिः। तत्र सम्बोधनप्रथमाविभक्ति एकवचनस्य प्रत्ययः एव सम्बुद्धौ इत्यनेन स्वीक्रियते। हे हरि इति अस्ति। इदानीं ह्रस्वस्य गुणः किं करोति? हे हरे इति गुणः इकारस्य एकारः गुणः हे हरे सु इति करोति। एवं हे हरे येन ह्रस्वात् सम्बुद्धेः इति इदानीं सकारलोपः हे हरे इति भवति। हे हरि हे हरयः समानम्। इदानीम् अम् हरि अम् इति भवति। हरिम् अमिपूर्वः हरिम् इति रूपम्। हरिम् हरी हरि इत्यत्र कः भेदः? प्रक्रिया दशायां हरि इत्यस्य द्वितीयावर्ति द्विवचनस्य कः भेदः? तत्र के औट् इति प्रत्ययः. हरीषस्तिति अग्रिम द्वितीयाभक्ति बहुवचनं हरीषस्. इदानीं षष्टित्यत्र अस्तिति भवति, हरीसिति भवति प्रथमेव पूर्वसवर्णः इति. एवं हरीन् तस्मात् चतो न पुंसि इति सकारस्य नत्वम्. तस्मात् चतो न पुंसि इति सूत्रार्थः कः महादेवन् महोदय? कदा तस्मात् इत्यत्र? तस्मात् कृतपूर्वसवर्णदीर्घात्. तस्मात् इत्यत्र तस्मात् पूर्वसवर्णदीर्घः यदि कृतः अस्ति तस्मात् शतः नः पुंसि पुल्लिङ्गे नः भवति. तस्मादित्यत्र कृतपूर्वसवर्णदीर्घात् इति स्मर्तव्यम्. एवं सकारस्य नत्वं हरीमिति. इदानीम् आरभ्यते नूतनसूत्रम्. शेषोभ्यसखी, इदानीम् अग्रिमसूत्रम् आरभ्यते. शेषोभ्यसखी इति अत्र पदत्रयं विद्यते. शेषः, घि, असखी इति पदत्रयम्. इदानीं शेषः इति अनन्तरम् आगच्छामः. शेषः इति स्पष्टार्थम् इति तत्र मूलकारः लिखति. इदानीं शेषोभ्यसखी इति सूत्रं कुत्र अस्ति? प्रथमाध्यायस्य चतुर्थपादे सप्तमसूत्रं. कृपया अष्टाध्यायीं स्वीकुर्वन्तु. अत्र विशेषः अस्ति अतः स्वीकर्तव्यमेव. अष्टाध्यायीं स्वीकुर्वन्तु. तत्र प्रथमाध्यायस्य चतुर्थपादस्य प्रथमं सूत्रं किम्? आकरारादेका संज्ञा. द्वितीयं सूत्रं विप्रतिषेधे परं कार्यं. तृतीयं यूत्राख्यौ नदी. अनन्तरं नेयं उवं स्थानावस्त्री. वामि इति ह्रस्वश्च शेषोज्ञसखी. इदानीम् आकडारादेका संज्ञा विप्रतिषेधे परं कार्यम् एतद् सूत्रद्वयं त्यजतु. तदनन्तरं यत्किमपि अस्ति तत् नदीसंज्ञाविषयकसूत्राणि सन्ति. नदीसंज्ञाविषयकसूत्राणि सन्ति. तर्हि नदीसंज्ञाविषयकसूत्राणि यूस्त्राख्यौ नदी. नदी इति काचन संज्ञा, व्याकरणसंज्ञा, न तु तत्र गङ्गा, यमुना, कावेरी इत्यादि नदी इत्यादि नद्यः नास्ति तत्र. तत्र नदी इति काचन संज्ञा. नदीसंज्ञा कदा आगच्छति इति यूत्राख्यौ नदी, नेयङ्वं स्थानावस्त्री, वामि इति ह्रस्वश्च. चत्वारि सूत्राणि नदीसंज्ञविषयकसूत्राणि. इदानीं पाणिनिः किं करोति? अत्र अपवादसूत्रं प्रथमं स्थापयति. इदानीं అపవాద సూత్రం ఉత్సర్గ సూత్రం. అత్ర అపవాద సూత్రాన్ని కాని ఇచ్చుక్తే చత్వారి అపవాద సూత్రాన్ని ఇదాని హ్రస్వ ఇకార ఉకార విషయే హ్రస్వ ఇకార ఉకార విషయే కదాచిత్ నదీ సంజ్ఞా భవతి కదాచిత్ ఘి సంజ్ఞా భవతి. ఘి ఇది ఏక సంజ్ఞా. ఇదానీ పాణిని కిం కరోతి అపవాద సూత్రం ప్రథమం రచయతి. అపవాద సూత్రాన్ని కాని యూస్త్రాఖ్యో నది నేమో స్థానవత్రి వామి ఇది హ్రస్వశ్చ. ఏతాని అపవాద సూత్రాలు ఇత్యుక్తే నదీ సంజ్ఞ విషయక సూత్రాలు. అత్ర ఏమం భవతి నదీ సంజ్ఞా ఎత్ర భవతి తత్ర ఘి సంజ్ఞా న భవతి ఎత్ర ఘి సంజ్ఞా భవతి తత్ర నదీ సంజ్ఞా న భవతి. అతః సూత్రార్థ ఏమస్తి పదత్రయం శేషోగ్య సఖి ఇత్యత్ర శేష ఘి అసఖీ అసఖీ ఇత్యత్ర అసఖీ ఇత్యత్ర న సఖీ అసఖీ నైతత్పురుష సమాస ఇత్యుక్తే సఖీ సఖీ శబ్ద భిన్న విషయ సఖీ శబ్దే అయం నియమ న ప్రవర్తతే ఇత్యర్థ. అసఖీ అసఖీ ఇత్యుక్తే సఖీ వర్జ్యం కిం భవతి శేష ఘీ భవతి. అసఖీ సఖీ సఖీ శబ్దం త్యక్త్వా శేష ఘీ భవతి ఇది సూత్రార్థ. ఇదానీ శేష ఘీ భవతి ఇత్యాది విషయే జ్ఞాతుం శేష ఇత్యుక్తే ఉక్తాదన్య శేష శేష ఇత్యుక్తే ఉక్తాదన్య శేష దట్ విచ్ ఇస్ నాట్ సెడ్ ఇస్ శేష అదర్ దాన్ వాట్ ఇస్ సెడ్ ఇస్ ఉక్తాదన్య శేష. ఇదానీ అత్ర కిం ఉక్తం ఇత్యుక్తే నదీ సంజ్ఞా విషయం ఉక్తం. నదీ సంజ్ఞా విషయం ఉక్తం నదీ సంజ్ఞా విషయ భిన్న ఎత్ర ఎత్ర నదీ సంజ్ఞా విషయ న భవతి తత్ర ఘి సంజ్ఞా విషయ ఇది అస్య సూత్రస్య అర్థ. ఇదానీం పశ్చామః స ఏవ సూత్రార్థ యూత్రాఖ్యో నదీ ఇత్యః యూ ఇది భవతి. తత్ర యూ నామ కిం ఇత్యుక్తే కృపయా శృణ్వంతు ఇశ్చ ఉశ్చ యూ ఇశ్చ ఉశ్చ యూ ప్రథమాదివచనే యూ ఇది భవతి. ఇశ్చ ఉశ్చ యూ ఇవర్ణ ఉవర్ణౌ ఇత్యర్థః. హ్రస్వ ఇవర్ణ హ్రస్వ ఉవర్ణః ఇత్యర్థః. కథం హ్రస్వః ఇత్యుక్తే హ్రస్వః ఇతి అనువృత్తిః అస్తి. ఏవం హ్రస్వ హ్రస్వ ఇవర్ణ ఉవర్ణౌ అనదీ సంజ్ఞౌ అనదీ సంజ్ఞౌ దట్ విచ్ డస్ నాట్ హావ్ ఎ నదీ సంజ్ఞా అనదీ సంజ్ఞౌ నదీ యస్య నదీ సంజ్ఞా నాస్తి యస్య యయోహో నదీ సంజ్ఞా నాస్తి తయోహో ఇత్యుక్తే హ్రస్వ ఇకార ఉకారయోహో అనదీ సంజ్ఞౌ హ్రస్వౌ యౌ ఇదుతౌ ఇత్యుక్తే ఇవర్ణ ఉవర్ణౌ తదంతం 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 సఖీవర్జ్యం సఖీవర్జ్యం ఘిసంజ్ఞం స్యాత్. అత్ర ఘిసంజ్ఞా భవతి. ఏవం ఇదానీ పాణిని కథం కరోతి ప్రథమం ఆకడారాదేకా సంజ్ఞా అస్మిన్ ఆకడారాదేకా సంజ్ఞా ఇత్యుక్తే అస్మిన్ ప్రకరణే అహం బహూని అత్ర అస్మిన్ ప్రకరణే అహం సంజ్ఞావిషయక పదాని సంజ్ఞావిషయకాని బహూని పదాని అహం ప్రయోగం కరోమి అస్య ఉపయోగం కరోమి అత్ర ఆకడారా ఏకా సంజ్ఞా, ఏకా ఏవ సంజ్ఞా భవతి, ఏకస్య ఏకా ఏవ సంజ్ఞా, ఏకస్మిన్ క్షణే ఏకస్య ఏకా ఏవ సంజ్ఞా ఇది సా ఏవ వదతి. అనంతరం విప్రతిషేధే పరం కార్యం తత్తు భిన్న విషయకం. అనంతరం యూస్త్రాఖ్యో నది, ఇదానీ యూస్త్రాఖ్యో నది నేంగస్థానాస్త్రి వామి ఇతి హిరస్వచ్చ ఇత్యత్ర నదీ నదీ సంజ్ఞా ఉక్త. ఇదానీ సహ వదతి శేషోగ్య సఖి ఇది వదతి. శేషః ఇత్యుక్తే ఉక్తాదన్య శేషః. ఇదానీ కః విషయః ఉక్తః? నదీ సంజ్ఞా విషయః ఉక్తః. అతః శేషః ఇతి ఇతి పదేనైవ అనదీ సంజ్ఞౌ ఇతి లబ్ధః. ఏతావత్పర్యంతం మయా కిం ఉక్తం? నదీ చతుర్థ పాదే నదీ సంజ్ఞా ఉక్తా. అతః అనదీ సంజ్ఞౌ శేషః నామ అనదీ సంజ్ఞౌ. అనదీ సంజ్ఞౌ యౌ ఈదూతౌ శేషోఘ్య సఖి శేషః ఘి అసఖి యౌ ఈదూతౌ తదంతం సఖివర్జం ఘి సంజ్ఞం స్యాత్. సఖి సఖి శబ్దం విహాయ ఘి సంజ్ఞా భవతి ఇది సూత్రార్థః. ఏవం అత్ర శేషపదేన అనదీ సంజ్ఞౌ ఇది వివక్షతే. ఇదానీ ప్రశ్న ఏమస్తి? నదీ సంజ్ఞా కుత్ర కుత్ర భవతి, కుత్ర న భవతి? యత్ర నదీ సంజ్ఞా భవతి తత్రైవ ఈ సంజ్ఞా ఇది భవంతః వదంతి. నదీ సంజ్ఞా కుత్ర న భవతి ఇత్యుక్తే చత్వారి సూత్రాణాం అర్థః జ్ఞాతవ్యః ఇది ప్రశ్న. తదా ఉచ్యతే నదీ సంజ్ఞా చత్వారి సూత్రాణాం అర్థః నదీ సంజ్ఞా విషయక చత్వారి సూత్రాణాం అర్థః ఏవమస్తి. హ్రస్వ ఇకారాంత ఉకారాంత పుల్లింగో వా నపుంసకలింగో వా భవతు తత్ర నదీ సంజ్ఞా నగచ్చతి. తత్ర నదీ సంజ్ఞా న భవతి. ఇదానీ స్త్రీలింగే యది నియత్ విభక్తీనాం ప్రయోగః అస్తి తస్మాత్ పరే నితి హ్రస్వశ్చ ఇది నదీ సంజ్ఞా న భవతి. ఇదానీ నితి హ్రస్వశ్చ వామి ఇత్యాదికమస్తి. నితి హ్రస్వశ్చ నామ నితి హ్రస్వః చ. నితి హ్రస్వశ్చ నామ తత్ర వికల్పేన నదీ సంజ్ఞా ఇత్యర్థః. యదా వికల్పేన నదీ సంజ్ఞా ఉచ్యతే, యదా నదీ సంజ్ఞా భవతి తదా ఘి సంజ్ఞా న భవతి. యదా నదీ సంజ్ఞా న భవతి తదా ద్విసంజ్ఞా భవతి. ఏవం నదీ సంజ్ఞా కుత్ర కుత్ర న భవతి ఇతి జ్ఞాత్వా ఇదానీ అనదీ సంజ్ఞో హ్రస్వం. నదీ సంజ్ఞా కుత్ర న భవతి పుల్లింగే నపుంసకలింగే హ్రస్వ ఇకారాంతః హ్రస్వ ఉకారాంతః యత్ర యత్ర భవతి తత్ర న భవతి. స్త్రీలింగే ఈత్ విభక్తీనాం నీతివత్తీనామ ఏ నస్తి నసి నీ నీతివత్తీనాం పరే యత్ర నితి హ్రస్వశ్చ ఇతి నదీ సంజ్ఞా న భవతి తత్ర ఘి సంజ్ఞా భవతి. ఇదానీ మతి శబ్దః, మతి శబ్దం స్వీకుర్మః. స్త్రీలింగ శబ్దః ఏషః. నిత్సు ప్రత్యయేషు పరే నితి హ్రస్వశ్చ ఇతి వికల్పేన నదీ సంజ్ఞా ఉక్తా. నితి హ్రస్వశ్చ ఇతి సూత్రం కిం వదతి? తత్తు అగ్రే అస్తి, స్త్రీలింగ ప్రకరణే అస్తి. ఇది హ్రస్వశ్చ ఇది అత్ర వికల్పేన నదీ సంజ్ఞా. యదా నదీ సంజ్ఞా భవతి తదా ఘి సంజ్ఞా న భవతి. యదా ఘి సంజ్ఞా భవతి తదా నదీ సంజ్ఞా న భవతి. తత్ర మత్యై మతయే మత్ తృతీయావక్తౌ మత్ చతుర్థీవక్తౌ మత్యై మతయే మత్యాహ మతేహ పంచమీవక్తౌ మత్యాహ మతేహ రూపద్వయం భవతి కిల తత్ ఏకం ఘి సంజ్ఞాయుక్త రూపం ఏకం నదీ సంజ్ఞాయుక్త రూపం. ఇదానీ అస్మిన్ పునః శేషోగ్య సఖీ సూత్రం ప్రతి ఆగచ్చామః. శేషోగ్య సఖీ ఇది సూత్రం కిం వదతి? అనదీ సంజ్ఞౌ యౌ ఈదూతౌ సస్య తదంతం సఖివర్జం ఘి సంజ్ఞం భవతి సఖీ శబ్దం విహాయ.
इदानीं प्रश्नः भवति नदी संज्ञा कुत्र कुत्र न भवति यत्र न भवति तत्रैव किल अस्य प्रयोगः अतः नदी संज्ञा कुत्र कुत्र न भवति इत्युक्ते पुल्लिङ्गे नपुंसकलिङ्गे ह्रस्व इकारान्तः ह्रस्व उकारान्तः अत्र न भवति स्त्रीलिङ्गे नीतिवृत्तीनां परे यदा निति ह्रस्वश्च इति एकं रूपं सिद्ध्यति तथैव अन्यत् निति ह्रस्वश्च इति एकं रूपं तत्र विकल्पेन नदीसंज्ञा अत्र उच्यते तत्पक्षे द्विसंज्ञा न भवति यदा द्विसंज्ञा भवति तदा नदीसंज्ञा न भवति इदानीं प्रश्नः एकसंज्ञाधिकारः अस्ति आकडारादेका संज्ञा इति अस्ति इदानीं प्रश्नः पृच्छामि इदानीं प्रश्नं पृच्छामः शेषग्रहणं किमर्थम् शेषग्रहणं किमर्थम् आकडारादेका संज्ञा इति तु पूर्वमेव अस्ति अत्र प्रश्नस्य आशयः एवमस्ति आकडारादेका संज्ञा इति तु अस्ति यदा द्विसंज्ञा भवति तदा नदीसंज्ञा न भवति यदा नदीसंज्ञा भवति द्विसंज्ञा न भवति एतत् कथनार्थं किमर्थं शेषः इति उक्तम् आकडारादेका संज्ञा इत्यनेनैव सिद्धिः इष्टसिद्धिः भवति इति सर्वे पृच्छन्ति एकसंज्ञाधिकारात् सिद्धे शेषग्रहणं स्पष्टार्थं तत्र मूले कौमुदीकारः लघुकौमुदीकारः अपि वदति शेषग्रहणं स्पष्टार्थम् इदानीम् अस्माभिः स्पष्टतया ज्ञातव्यं कुत्र नदी कुत्र घी इति यत्र नदीसंज्ञा भवति तत्र नदीसंज्ञानिमित्तककार्याणि भवन्ति यत्र घिसंज्ञा अस्ति तत्र घिसंज्ञानिमित्तकार्याणि तत्र भवन्ति अतः नदी एकसंज्ञाधिकारादेव सिद्धे किमर्थं तत्र शेषग्रहणं सूत्रे इति सर्वे पृच्छन्ति तदा उच्यते शेषग्रहणं स्पष्टार्थम् ज्ञातं वा महादेवन् महोदय ज्ञातं वा क्लारिटि तत्र यत्र नदीसंज्ञा नास्ति तत्र द्विसंज्ञा इति तत्र तात्पर्यार्थः कुत्र नदीसंज्ञा नास्ति इति अस्माभिः द्रष्टव्यं कुत्र द्विसंज्ञा नास्ति कुत्र द्विसंज्ञा अस्ति इति द्रष्टव्यम् यदा नदीसंज्ञा अस्ति नदीसंज्ञकनिमित्तकार्याणि भवन्ति यदा द्विसंज्ञा अस्ति द्विसंज्ञानिमित्तकार्याणि भवन्ति एतदेव तात्पर्यम् असखि इति उक्तत्वात् सखीवर्जम् इत्येव अत्र स्वीक्रियते इदानीं किं भवति तत् सखीशब्दः पुल्लिङ्गः असखी इति उक्तः सखीशब्दस्य विशेषसूत्राणि सन्ति अग्रे स एव आगच्छति पश्यामः तत् अग्रे स एव विषयः इदानीं तर्हि इदानीं प्रश्नः द्विसंज्ञा अस्माभिः अधीतम् इदानीं द्विसंज्ञा किमर्थमुच्यते अत्र द्विसंज्ञा किमर्थमुच्यते तदा उच्यते द्विसंज्ञानिमित्तकार्याणि कर्तुं द्विसंज्ञा आवश्यकम्
तृतीयावृत्ति एकवचने हरि ता इति अस्ति, हरि ता इत्यत्र हरि आ इति भवति। तदा उच्यते घे, घेः परस्य आनः न स्यात् अस्त्रियाम्। अस्त्रियाम् घे परस्य आनः, घे परस्य नाम घिसंज्ञायुक्तस्य परस्य आनः। इदानीं हरि इति शब्दः नदीसंज्ञाविनिर्मुक्तः इत्युक्ते हरि इति पुल्लिङ्गशब्दः अस्ति, ह्रस्व इकार पुल्लिङ्गशब्दः। अतः हरि इत्यस्य सखि, हरि इत्यस्य घिसंज्ञा अस्ति, हरिशब्दस्य घिसंज्ञा अस्ति। इदानीं घिसंज्ञा हरिशब्दस्य अस्ति, ततः उच्यते आनो नास्त्रियाम्। आनः, आनः इत्युक्ते टा, सु औजस् अम् औषत् टाभ्यां व्यस्थिति अस्ति किल, तत्र टा इत्यस्य आनः इति संज्ञा अस्ति। आन् आन् इति टा संज्ञा। आङ् केषां, के दत्तवन्तः एतादृशसंज्ञा इत्युक्ते प्राचां, प्राचां संज्ञा। प्राचाम् इत्युक्ते तत्र पाणिनेः पूर्ववैयाकरणाः, तत्र टा इत्यस्य आन् इति वदति स्म। अतः आनो नास्त्रियां, घेः परस्य आनः। इदानीं घेः परस्य आनः नाम हरिशब्दः घिसंज्ञायुक्तः अस्ति, हरि इत्यस्य ह्रस्व इकारः अस्ति, अतः हरिशब्दस्य शेषोख्यसखि इत्यनेन घिसंज्ञा आगता। इदानीं घेः परस्य आनः, टा इत्यत्र आन् आ इति अस्ति, घेः परस्य अस्ति। न स्यात् हरि, हरि न इति भवति, आनो नास्त्रियामिति न नादेशः, न आनो नास्त्रियाम् इति नादेशः। इदानीम् अट्कोपाङ्गं व्यवायेति इति नकारादेशः। एवं हरि आ, हरि न, हरि न इति भवति। एवं तृतीयावक्ति एकवचनरूपं हरिणा इति भवति। हरिभ्याम् इत्यत्र कोऽपि विशेषः नास्ति, हरिभ्यां हरिणा, हरिभ्यां हरिभिः, हरये, हरये इत्यत्र पुनः एकनिमिषम्, अस्तु। घेर्मिति इति सूत्रं, घेः इति, इति इत्युक्ते नित्, यत्र नित् अस्ति, तत्र घेः यदि घिसंज्ञा कस्य अस्ति, हरिशब्दस्य अस्ति। इदानीं घेः इति सुति गुणः, गुणः भवति इति सूत्रार्थः। गुणः इति ह्रस्वस्य गुणः इति सूत्रात् गुणः इति पदम् अनुवर्तते। अतः गुणः सुपि, सुपि चैत्यनेन इति सूत्रात् सुपि, सुपि इति अनुवर्तते। सुपि गुणः घे गिति इति चत्वारि पदानि, घिसंज्ञकस्य निति सुपि गुणः भवति। एवम् अत्र हरि ये इति स्थिते हरि इत्यस्य घिसंज्ञा अस्ति, घेर्निति इत्यनेन तस्य एकं
हरि इत्यत्र हरे ये तदनन्तरं इचो य वायावः इत्यनेन हरये इति भवति. एवं घे किं सख्ये असखी इति उक्तत्वात् सखी शब्दस्य विसंज्ञा नास्ति इति अत्र कविः मूलकारः वदति. इदानीं गस्त हरये किं सखी शब्द सखी शब्दस्य वा तर्हि इकोणचि आम आम परन्तु गिसंज्ञा अत्र हरिशब्दस्य गिसंज्ञा अस्ति. अस्मिन् सूत्रे घे इति किमर्थम् अस्माभिः उच्यते इत्युक्ते दलकृत्यं तत्र सख्ये इति अतः विसंज्ञा नास्ति तत्र. एवं हरये हरिभ्यां हरिभ्यः हरिभ्यां ज्ञायते हरिभ्यः अपि ज्ञायते. इदानीं हरि नसि घेर्गिति इति गुणे कृते हरे अस्तिति भवति. हरे अस्तिति इत्यत्र यान्तादेशप्राप्तिः अस्ति. यान्तादेशप्राप्तिः यत्र अस्ति तदा न्यसि नसोश्च इति सूत्रम् अग्रिमसूत्रम् आगच्छति. न्यसि नसोश्च इदानीं किं भवति अत्र न्यसि न्यसि नसोः च न्यसि नसोः नसिनसोः नाम षष्ठीभक्तिद्विवचनं नसिनसोः येङः येङः पदान्तादति इत्यतः येङः इति भवति. अमिपूर्वः इत्यतः पूर्वः इति अति इत्यपि अनुवर्तते. येङपदान्तादति इति अति इति अनुवर्तते. एकः पूर्वपरयोः इति अधिक्रियते. एकः पूर्वपरयोः नाम एकपूर्वपरयोः ज्ञायते वा एकादेशः. इदानीं संहिताधिकारे एकपूर्वपरयोः इति अस्ति. एकपूर्वपरयोः इत्यस्मात् एकपूर्व तदपि अधिक्रियते. इदानीं प्रश्नः सूत्रार्थः तर्हि येङः नति नसोः अति पूर्वरूपम् एकादेशः स्यात्. नसिनसोः अति अति पूर्वरूपम् एकादेशः इदानीं पश्यन्तु ये ह्रस्व जेर्मिति इति गुणे कृते एकारत्वं हरे इति अङ्गस्य एकारत्वम् अस्ति. इदानीं येणः इत्युक्ते एकारान्तं पदं हरे लतिनसोः अपि पूर्वरूपम् एकादेशः. एकादेशः नाम इदानीं हरे अस्तिति अस्ति. हरे अस्तित्यत्र हरे रेफात्परस्य एकारस्य अकारस्य च पूर्वरूपम् एकादेशः. पूर्वरूपं नाम एकारम् एकारः. एकादेशः नाम एकार अकारयोः स्थाने एकारः. अवगतं वा? पूर्वरूपं नाम एकारः. एकादेशः नाम एकार अकारयोः स्थाने एकारः. अत्र एवं हरे अस् इत्यत्र हरेस् इति भवति. एवं हरेः हरे रु हरेः. नति नसोश्च इति सूत्रमागत्य हरेः इति रूपं साधयति. तदनन्तरं हरेः हर्योः हरि ओस् इति भवति. हरि ओस् इत्यत्र ईकार ओकारः अस्ति. इको इणचि इति हर्योस् इति भवति. हर्योः हर्योः समीचीनम्. तदनन्तरं बहुवचनं षष्टि बहुवचनं हरि आम् इति स्थितिः. तदनन्तरं हरि न आम् ह्रस्वनद्यापो नुट् इत्यनेन ह्रस्व हरि इति ह्रस्वः नुट् इति आगमः भवति. नुट् आगमः तित्त्वं टित् अस्ति. टित् नाम आद्यवयवस्थं भवति. एवम् आम् इत्यस्य आद्यवयवस्थं नाम् इति भवति. एवं हरि नाम् इति भवति. नाम् इति सूत्रेण नाम् इति दीर्घः. हरीनाम् हरीनाम् इति दीर्घे कृते नाम् इत्यत्र अट्टुपं व्यवायति इत्यनेन नाम् इति भवति. हरीनाम् तर्हि सप्तमे भक्ति एकवचनरूपं हरौ इति भवति. इदानीम् अग्रिमसूत्रं हरि सप्तमे भक्ति एकवचनरूपसिद्ध्यर्थं हरि नी हरि नी इति भवति. नी इत्यत्र हरि इ हरि इ इत्यत्र जेर्निति इत्यनेनैव गुणप्राप्तिः. परन्तु घेर्निति इति सूत्रस्य अपवादत्वेन अपवादरूपेण अच्चघेः इति सूत्रं विद्यते. अच् च घेः इति पदच्छेदः. ङेरां नद्यामीभ्यः इति ङे ज्ञेः इति इदुभ्याम् इत्यस्मात् इदुभ्यान्ति. औट् इति च अनुवर्तते. इदानीं तर्हि ङेरां ङेः इदुभ्याम् औत् अत् च घेः इति पदानि. इदुभ्याम् उत्तरस्य ङेः औत् घेः अत् च. एतत् मल्टिटास्किङ्ग् सूत्रमस्ति. तत्र मेनेज्मेण्ट् मध्ये मल्टिटास्किङ्ग् इति वदन्ति. अत्र अस्माकम् आफीस् मध्ये यः एकम् एकं कार्यं न करोति परन्तु बहु कार्याणि यदि करोति चेत् तस्य मल्टी टास्क् इस् अ मल्टी टास्कर् इति वदन्ति. एवम् अच्छगेः इति सूत्रं मल्टी टास्किङ्ग् करोति. मल्टी टास्किङ्ग् नाम कार्यद्वयं सम्पादयति. इदुभ्याम् उत्तरस्य ज्ञेः. इदानीं ह्रस्व इकारः ह्रस्व उकारः तस्य उत्तरस्य ज्ञेः. ज्ञेः नाम सप्तविभक्ति एकवचनं ज्ञेः. औत् औत् स्यात् औकारः घेः अथ च. सो इदुभ्यामुत्तरस्य ज्ञेः औत् इति एकं कार्यं. घेः अथ च इति द्वितीयं कार्यं. दट् इस् इट् इस् सेट् टु बि मल्टी टास्किङ्ग् सूत्र. हरि नि इति भवति. तत्र अच्चगेः इति प्रकृतसूत्रेण ज्ञेः औत् स्यात् इकारस्य स्थाने अत्र पश्यन्तु प्रकृतेः इकारस्य स्थाने अकारः. घेः अथ च इकारस्य स्थाने अकारः. अत् इत्युक्ते तपरकरणं. तपरकरणं नाम ह्रस्व अकारः. एवं प्रकृतिकार्यम् अच्चगेः इति प्रकृतिकार्यमपि करोति, प्रत्ययकार्यमपि करोति, कार्यद्वयं करोति. कार्यद्वयं किं? ह्रस्व इकारस्य अकारत्वसम्पादनं प्रथमं कार्यं. द्वितीयं कार्यं प्रत्यय इकारस्य प्रत्ययस्य औकारादेशः. एवम् अटेटैन् हरि नि हरि इ इति अस्ति. ह्रस्व इकारस्य प्रकृति प्रकृतेः ह्रस्व इकारस्य हर इति भवति. हर इति भवति. तदनन्तरं पुनः अच्चगेः कार्यं करोति. किं करोति? इकारस्य स्थाने औकारः भवति. इदुभ्याम् उत्तरस्य ज्ञेः औत्. इदानीं ज्ञेः औत् स्यात्. औत् नाम कः? औत् नाम औकारः. एवं एवं प्रकृतेः इकारस्य स्थाने अकारः, औकारः अपि भवति. एवं तदनन्तरं हर ओङ्कारस्यापि प्लुतः अस्ति किल. न औकारः दीर्घः एव. तत्र औकार न औकार औकारः औकारः स एव. अत्र औकारस्य प्लुतः अपि अस्ति. प्लुतः अस्ति किल तस्य. दीर्घ औकारः एव अस्माभिः स्वीकर्तव्यम्. ह्रस्वः नास्ति परन्तु प्लुतः अस्ति. इदुभ्यां परस्य इदुभ्याम् उत्तरस्य ज्ञेः औत्. घेः अच् इति कार्यद्वयम्. अच्चगेः इति एकं सूत्रं कार्यद्वयं सम्पादयति. ह्रस्व इकारस्य अकारत्वसम्पादनं प्रकृतेः प्रकृतेः हरिशब्दस्य इकारस्य हर इति सम्पादनं. तदनन्तरम् इकारस्य इत्युक्ते प्रत्ययस्य इकारस्य औत्वसम्पादनम्. एवं हरौ इति भवति। हरौ हर्योः इति इदानीं ज्ञातं, स एव प्रक्रिया भवति हरिषु आदेशप्रत्ययोः इति। हरिषु इति सकारस्य षत्वं, हरिसुप् तत्र पकारः गच्छति, हरिषु हरिषु इति भवति। आदेशप्रत्ययोः इत्यस्य सूत्रस्य अर्थः मूर्धन्यसकारः कदा भवति? इन्कोः इन्कुभ्यां, इदानीं हरि इति इन् इकारः इन् वर्णः अस्ति, अस्तु हरिषु शब्द इदानीं हरिशब्दः समाप्तः, हरिशब्दस्य प्रक्रिया समाप्ता, तदनन्तरं अग्रिमशब्दः सखिशब्दः, इकारान्तः पुल्लिङ्गः सखिशब्दः, सखा सखायौ सखायः, हे सखे। महादेव महोदय अस्तु शब्दं वदति वा? सखा हा पुल्लिङ्गशब्दः सखिशब्दः सुहृद् इत्यर्थः इत्यर्थः। इदानीं सखीशब्दस्य प्रथमाविभक्ति एकवचनरूपं सखा इति अस्ति। किं भवति अत्र? केशोभ्यसखी इति सूत्रं, सूत्रे असखी इति उक्तम्, एवं सखी सखीशब्दस्य द्विसंज्ञा न भवति इति ज्ञातम्। इदानीं प्रथमाविभक्ति एकवचन विवक्षायाम् अत्र अनंसौ इति सूत्रं प्रवर्तते। अनंसौ अन्धस्य इति अधिकारः अस्ति, सप्तमाध्यायस्य प्रथमपादस्य सूत्रं, षष्ठाध्यायस्य चतुर्थपादादेव अङ्गाधिकारः प्रारभ्यते। सच्युरसम्बुद्धौ इति पूर्णमनुवर्तते, सच्युरसम्बुद्धौ इति पूर्वसूत्रं विद्यते। सच्युरसम्बुद्धौ अनंसौ इति भवति। इदानीं सख्युरसम्बुद्धौ इत्युक्ते सख्युः असम्बुद्धौ अनंसौ अङ्गस्य इति पञ्चपदानि, एवं सख्युः अङ्गस्य अनङ्गादेशः असम्बुद्धौ परे इति भवति। सख्युः अङ्गस्य अनङ्गादेशः असम्बुद्धौ सौ, इदानीम् अनङ्गादेशः इत्यत्र अनङ् इति आदेशः, अनङ् इत्यत्र नित् अस्ति, नकारोत्तर अकारः उच्चारणार्थः, तर्हि आदेशः इत्युक्ते किं भवति? नकारोत्तर अकारः उच्चारणार्थः, नकारः इत्य तर्हि अन् इति भवति, अनम् इत्युक्ते अन् इति भवति। अवगतं वा? अस्य सूत्रस्य कार्यं किं? कार्यं किम् इत्युक्ते अनङ्गादेशविधानं, विधिसूत्रम् एतत्, अनङ्गादेशविधानमेव अस्य सूत्रस्य कार्यम्। अनङ् इत्यत्र ञित् अस्ति, अनङ् अतः नकारोत्तर अकारः उच्चारणार्थः स्वीक्रियते व्याख्यानार्थम्। इदानीं अन सखी सु इति भवति। सखी सु इत्यत्र अनंगादेशः इकारस्य स्थाने सख्युः अंगस्य अंगस्य नाम सखी अंगस्य अनंगादेशः इकारस्य अनंगादेशः कदा असंबुद्धौ सौ सौ इत्यत्र कः विभक्तिः अस्माभिः स्वीकरणीयौ प्रथमा सप्तमी वा सुप् इति सु औजस् इत्यत्र सु इति अस्ति किल तस्य सप्तमी विभक्तिः सौ सौ पर सौ सौ इत्युक्ते सौ परे इत्युक्ते प्रथमाविभक्ति एकवचनप्रत्यये परे असम्बुद्धौ सौ परे प्रथमाविभक्ति एकवचनम् इति कथं ज्ञायते सुप् इति सुप्रत्ययः सप्तमी विभक्ति बहुवचनमपि अस्ति तत्र सौ इति स्वीकर्तुं शक्यते इति भवन्तः पृच्छन्ति चेत् तदा पाणिनिः असम्बुद्धौ इति अनुवृत्तिः न इष्यति असम्बुद्धौ सौ इति उक्तत्वादेव प्रथमाविभक्तिः इति ज्ञायते। इदानीं सौ इत्युक्ते प्रथमाविभक्ति एकवचन एकवचनस्य ग्रहणम् सप्तमी बहुवचनस्य न एवम् असम्बुद्धौ इत्युक्ते सम्बुद्धिभिन्न सौ परे सम्बुद्धिभिन्ना नाम सम्बोधनप्रथमाविभक्तिः इत्यर्थः सम्बुद्धिभिन्न सम्बोधनप्रथमाविभक्तिभिन्न सौ परे किं भवति अङ्गस्य सख्युः इति अङ्गस्य सख्युः इति स्पेसिफिकलि उक्तमस्ति सख्युरसम्बुद्धौ इति पूर्णानुवृत्तिः अस्ति एवं सख्युः अङ्गस्य इति अनङ्गादेशः भवति अनङ्गादेशः नाम कुत्र भवति इति प्रश्नः निच्च इति अन्तादेशः इदानीम् अस्माभिः अनेकाश्चित् सर्वस्य आदेशपरस्य निच्च अलोङ्क्यस्य इति चत्वारि सूत्राणि अधीतानि अधीतं तत्र निच्च इति सर्व अपवादः इत्युक्ते यदि नित् अस्ति चेत् प्रथमं स एव करण्यः नित्य इति अन्तादेशः इदानीं सखी प्रथमं सखी सु इति अस्ति तदनन्तरम् अनंसौ इत्यनेन अन् आदेशः सख इ सु तत्र इकारस्य स्थाने अन् आदेशः एवं सख अन् सु इति भवति। तदा किं भवति अग्रिमसूत्रं सख अन्स् इति भवति अग्रिमसूत्रम् अलोन्त्यात् पूर्वोपधा इति अस्ति अलोन्त्यात् पूर्वोपधा चत्वारि पदानि सन्ति अलः अन्त्यात् पूर्वः उपधा अलः नाम सर्वे वर्णाः इत्यर्थः अन्त्यात् पूर्वः इत्युक्ते अन्त्यवर्णात् पूर्ववर्णः उपधा इत्युक्ते उपधा इति संज्ञा एवम् एतत् संज्ञासूत्रं विद्यते अलोन् उपधा नाम किम् इत्युक्ते अलोन्त्यात् पूर्वोपधा इदानीम् अन्त्यात् अन्त्यवर्णस्य पूर्ववर्णः उपधासंज्ञः अस्ति इति सुलभतया ज्ञातुं शक्यते अन्त्यादलः पूर्ववर्णः उपधासंज्ञः स्यात् एतद् उपधा इति वेरि इम्पार्टेण्ट् संज्ञा अस्ति सर्वत्र धातूनां प्रयोगे उपधा संज्ञा प्रयुज्यते। इदानीं सखा सखन्सु इति भवति सखन्सु इत्यत्र ख आ न सु कस्य उपदासंज्ञा इत्युक्ते अन्त्य आ न तत्र उपधात् नकारः सखन् सखन्सु इति स्वीक्रियते चेत् परन्तु सखन् आ सखन् इति स्वीक्रियते चेत् उपदा आ उपदा अकारः सर्वनामस्थाने च असम्बुद्धौ इति अग्रिमसूत्रम् किमर्थम् उपदा संज्ञा अत्र उक्ता इत्युक्ते सर्वनामस्थाने च असम्बुद्धौ अत्र पदत्रयं विद्यते सर्वनामस्थाने च असम्बुद्धौ इति असम्बुद्धौ नाम न सम्बुद्धौ न सम्बुद्धौ नाम सम्बोधनपत्रावृत्तिः न भवेत् अङ्गस्य इति अधिक्रियते इदानीं ढलोपे पूर्वस्य दीर्घोणः इत्यत्र दीर्घः इति अधि अनुवृत्तिः अस्ति नोपधायाः इति सूत्रं न उपधायाः इति सूत्रं च अनुवर्तते इदानीम् अत्र सर्वनामस्थाने च असम्बुद्धौ असम्बुद्धौ सर्वनामस्थाने सर्वनामस्थानं नाम किम् सोजस् अमौट् इद औट् पर्यन्तं सूत्रं किम् सर्वनामस्थान स्वादिषु स्वादिषु पदसंज्ञा सर्वनामस्थानसंज्ञासूत्रं ततः पूर्वम् सुडलपुंसकस्य इति सूत्रं सर्वनामस्थानसंज्ञाविधायकम् एवं किं जातं सर्वनामस्थाने च असम्बुद्धौ इदानीम् असम्बुद्धौ सर्वनामस्थाने इत्युक्ते पञ्चविभक्तिषु नान्तस्य उपधायाः दीर्घः स्यात् नान्तस्य नकारान्तस्य उपधायाः दीर्घः स्यात् इदानीं पश्यतु सखन् सखा आ नु सा नान्त सखन् इति नान्तः अस्ति उपधायाः दीर्घः उपधा नाम अकारः ह्रस्व अकारः अस्ति ह्रस्व अकारः इति अस्ति चेत् दीर्घः भवति एवं सखान् अन्नित्यत्र आ अकारस्य आ इति भवति एवं सखान् सु इति भवति अवगतं वा हा सुलभमस्ति अग्रिमसंज्ञा अस्ति अपृत्त एकाल् प्रत्ययः अपृत्त एकाल् प्रत्ययः एकाल् प्रत्ययः यः सः अपृत्तसंज्ञः स्यात् एकाल् प्रत्ययः नाम एकः सखानुस् इति अस्ति एकाल् सखा एकाल् स एकाल् प्रत्ययः सकारः सुवंशस् इत्यत्र एकाल् प्रत्ययः सु इति अनुबन्धलोपानन्तरम् अनुबन्ध नाम अनु इत्संज्ञालोपानन्तरम् एकाल् प्रत्ययः अभवत् एकाल् प्रत्ययः तस्य एकाल् प्रत्ययस्य अपृत्त अपृत्त इति संज्ञा अस्ति अकृत्त एकाल प्रत्ययः इति संन्यासरूपम् एवं सखामसु इत्यत्र सकारस्य अकृत्त इति नाम आगतम्। इदानीम् अग्रिमसूत्रं केवलम् अग्रिमसूत्रम् उक्त्वा अग्रिमसूत्रस्य बहवः अंशाः सन्ति। हल्म्याभ्यो दीर्घात् स्तुतिस्य अपृष्टं हल् इति अग्रिमसूत्रं। हल्म्याभ्यो दीर्घात् स्तुतिसि अपृष्टं हल् पञ्चपदानि सन्ति। हल्नि आभ्यः दीर्घात् स्तुतिसि अपृष्टं हल् इदानीं हलन्तात् हा एतस्य किञ्चित् तात्पर्यम् उक्त्वा अत्रैव समाप्तिं कुर्मः। अग्रिमकक्षायां पुनः अनुवर्तनं कुर्मः। तत्र सखा इति रूपसिद्धिं कृत्वा अस्माभिः अत्र सखान् स इति ज्ञातम्। स इति एकाल् अपृत्त इति तस्य संज्ञा। अत्र अनेन सूत्रेण अपृत्त हल् लुप्यते इति उच्यते। अपृत्त हलः लोपः भवति। अत्र सकारस्य लोपः भवति। केन सूत्रेण? हल्म्याभ्यो दीर्घात् स्तुतिश्च पृष्टं हल्। एतस्य सूत्रस्य विवरणविषये किञ्चित् दीर्घः दीर्घं व्याख्यानमस्ति, तदनन्तरम् अग्रिमकक्षायां वदामः। किं भवति इत्युक्ते सकारस्य लोपः भवति। तदनन्तरं नलोपप्रातिपदिकान्तस्य इति सूत्रेण नकारस्यापि लोपः भवति। तदपि अग्रिमसूत्रं विद्यते। एवं सखा इति रूपसिद्धिः भवति सखीशब्दस्य। एतावत्पर्यन्तम् अत्रैव किञ्चित् 10:20 अस्तु। इदानीं हरिशब्दस्य विषये कृपया प्रक्रियां लिखित्वा स्थापयन्तु। सखीशब्दस्य विषये अपि विशेषप्रक्रियाविषयाः सन्ति, तदपि अस्माभिः ज्ञातव्यं, तदपि लिखन्तु इति प्रार्थ्ये। अस्तु, समानं भवति। ह्रस्व इकारः ह्रस्व उकारः अस्ति किल, समानं भवति। अस्तु, संशयाः भवन्ति अहं जानामि, कृपया पठन्तु। अग्रिमकक्षायां यत्किमपि संशयः अस्ति चेत् अवश्यं पृच्छतु। किञ्चित् अद्य किञ्चित् वेगेन गतवान् इति, प्रायः वेगेन गतवान्, परन्तु संज्ञासूत्राणि तत्र आसन्, अतः अहं चिन्तितवान् संज्ञासूत्राणां विषये अधिकसमयं न। हल्म्याभ्यो दीर्घास्तुतिः चतुर्थं हल् इति विषये तद् प्रमुखसूत्रं विद्यते, सर्वत्र तस्य उल्लेखः भवति। प्रश्नपत्रिकासु सर्वदा उल्लेखः भवति। कौमुदी इत्यादिषु दीर्घव्याख्यानमस्ति, महाभाष्ये अपि दीर्घव्याख्यानमस्ति, अतः सम्यक् पठनीयं तत्। अग्रिम कक्षायां वदामि। येन अक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै नमः नत्वा।